शान्त्यर्थं धुन्धिराजः पूजनीय प्रयत्नतः अष्टोत्तरशतैर्दिव्यैर्गणेशस्यैव नामभिः कर्तव्यमति यत्नेन नवदूर्वाङ्कुरार्पणम् तनुं शुद्धं सर्वार्तिहरमं व्ययं वरदं गणपं ध्यात्वा पूजाकार्या प्रयत्नतः ऋषिर्विघ्नेश इत्यादिनाम्नां सर्वेश्वरः शिवः देवता विघ्नराजोऽत्र छन्दोऽनुष्टुप् शुभप्रदम् सर्वप्रत्यूहशमनम् फलम् शक्तिः सुधात्मिका कीलकम् गणनाथस्य कार्येति कामदा विघ्नेशो विश्ववदनो विश्वचक्षुर्जगत्पतिः हिरण्यरूपः सर्वात्मा ज्ञानरूपो जगन्मयः
कपिलो ढुंढिरुग्रो भीमो हर शुभ गणाध्यक्षो गणाराध्य गणेशो गणनायक ज्योतिस्वरूपो भूतात्मा धूम्रकेतुरनाकुल कुमार गुरुरानंद खेरंबो वेद संस्तुतः नागोपवीति दुर्धर्षो बाल दुर्वांकुर प्रियः बालचंद्रो विश्वधामा शिवपुत्रो विनायकः लीलावलंबित वपुः पूर्णः परमसुंदरः विद्यांधकार मार्तंडो विघ्नारण्य दवानलः सिंदूरवदनो नित्यो विष्णुः प्रमथ पूजितः शरण्य दिव्य पादाब्जो भक्त मंदार
कैर्दिव्यैः सुगन्धैर्घृतपाचितैः
नैवेद्यं कल्पयेदिष्टं गणेशाय शुभावहम्। अन्यैश्च परमान्नाद्यैर्भक्षैर्भोज्यैर्मनोहरैः तोषणीय प्रयत्नेन वक्रतुण्डो विनायकः। प्रदक्षिण नमस्कारा दिव्यतन्नाम संख्यया कर्तव्यानि यतं शुद्धैर्मौन व्रतपरायणैः। ततः संतर्प्य विधिवत् जैवान् ब्राह्मण सत्तमा पुनरभ्यर्च विघ्नेशमिमं मन्त्रमुदीरये।
गणनायका काशीवासं
प्रयच्छन्ति निर्विघ्नेनैव सादरम् आज्येन कापिलेनैव सार्धलक्षत्रयाहुतिः उत्वैतन्नामभिः सम्यक् सर्वविद्याधिपो भवेत् एतानि दिव्यनामानि प्रतिवासरमादरात् पठित्वा गणनाथस्य पूजाकार्या प्रयत्नतः